हेलो
हेलो,
हमें
सलाम देनी सिले
सामने सुनो।
आहून सामान इन सामान इस इंतले इड बोला उल्लेन नब्बे।
आई यार रेडियो या दामत कोई नहीं फिल्म रिस्पोन है एक्शन गुज़ूए मिलने कर। सम्मा हूँ ना मंदिर ना वो मिला मर जाओ बिल से सलाले में लेने।
अच्छी ये तो कार भी नहीं अल्लत रसो।
नहीं वो तो मरका तो कबाबी।
अच्छी አክሲዮን ሽያጭ አሁን ጀምረናል። ድርጅቱ ከ30 አመት በላይ የቆየ ድርጅት ነው። ምናልባት ካወቁት ፊንስቶን ሆምስ ይባላል። አፓርትመንት ቤቶችን፣ ቪላ ቤቶችን እየገነባ የሚሸጥ ድርጅት ነው። የአንድ አክሲዮን ዋጋ 750 ብር ነው። 750 ሲገዙ ያው የትርፍ ተካፋይ ይሆናሉ ማለት ነው። ወይም ደግሞ አክሲዮኑን ወደ ቤትም ይቀየርልኝም ካሉ ድርጅቱ የአፓርትመንቶችን እየገነባ ስለሆነ የሚሸጠው ወደ ቤት የሚቀየርልኝም ካሉ የዛ አክሰስም ይኖሩታል ማለት ነው።
እሺ፣ ስንት አክሲ ስንት እንትን ነው የሚገዛው? ለማ አንዱ ዋጋ 750 ከሆነ
ከ75000 ጀምሮ መግዛት ይችላሉ። ከ75000 ጀምሮ መግዛት ይችላሉ።
አይ መረጃውን ለማፈልኪ።
እሺ ለበለጠ መረጃ ወደ ኦፊስ ይመጡ ቆንጆ ነው።